गणेशाय नमः ॐ वाघर्थाविव संप्रक्तौ वाघर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ ॐ ॐ एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॐ ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै हरिः ॐ गुरुभ्यो नमः
धन्यवादः सर्वेभ्यो नमो नमः गीताञ्जलिः अस्ति
नमस्कारः भगिनी
सुधा भगिनी नमस्ते नमस्ते अद्य किं कुर्मः अत्र कोऽपि किञ्चित् विशेष इच्छति वा अद्य एनिबडि हेज़् एनी स्पेशल् रिक्वेस्ट् टु वर्क् आन् सम् स्पेशल् थिङ्ग्स् आर् शुड् वि एनी पर्टिक्युलर् आस्पेक्ट् एनी क्वश्चन् हा वदतु
एकः प्रश्नः वेन् वि वर् प्राक्टिसिङ्ग् वि केम् अक्रास् दिस् वर्ड् लैक् परिवर्तयतु
परिवर्तयतु
सो इफ् वि हेव् अ सफिक्स् लैक् देट् हौ विल् वि नो अबौट् द धातु इन्फर्मेशन्
इट्स् हार्ड् इसन्ट् इट् सो दिस् कम्स् फ्रोम् हा परिवर्तयतु इट् कम्स् फ्रोम् द धातु वृत् अधुना पश्यतु वृत्
वृत्
हा सो परिवर्तयतु इट् कैण्ड् आफ् लाङ्ग् सो it is saying you create that call, you cause that change to happen. So vrut, look up vrut, is it there? Vartate is the first form it will take. Atmanepadi vartate. Vrit. Aya, did you get? Pashyati va?
Aam bhagini.
Screen sharing madhi appi aham. Darshayami. Astu. Atra, vrit. धातु अस्ति परिवर्त सि वर्तते किन्तु अत्र तु वर्तयते यकार कथम् आयाति इति प्रश्न किन्तु अधुना त्यजतु अत्र तु वर्त सि लोट् इस् वर्ततां आत्मनेपदि तु वर्तयते कहाँ से आया न देट्स् अ क्वश्चन् यु हेव् अधुना त्यजतु भगिनि It gets a little bit complex. Some more pratyayas come. Causal pratyaya comes in that. So, it will come to you. In the dhatu gana, it will slowly start to... In the dhatu, in your vyakarana varga, it will slowly start to unfold.
Okay,
Bhagini. But pari... So, there are 22 upasargas. द्वाविंशतिः उपसर्गाः सन्ति कथं जानीमः ते के किं कुर्मः सिम्प्लि गूगल् मध्ये पश्यतु गूगल् मध्ये किं 22 उप आक्चुलि उपसर्ग
उपसर्गः इत्युक्ते प्रिफिक्स्
हा उपसर्गाः इत्युक्ते उपसर्ग इत्युक्ते प्रिफिक्स् उपसर्गाः कति द्वाविंशति उपसर्गाः सन्ति सो द मोर् यु टैप् युर् सर्च् इन् संस्कृत द बेटर् द रिसल्ट्स् विल् कम् इन् देवनागरी ऐ मीन् किमर्थं इट् अवाय्ड्स् आल् दिस् इङ्ग्लिश् कन्फ्यूजन् सो मेनि पीपल् केन् रैट् अबौट् उपसर्ग इन् इङ्ग्लिश् नो इवन् पीपल् दट् डोण्ट् नो संस्कृत But if you type in Devanagari, your chances, I have noticed, it improves your search. It makes it faster, actually. So, you do this and see. Let's see what comes. I've never looked, but we can find out. See, first thing, Wikipedia is there, Ashtadhyayi are there, 222 Upaswaragas. Then, Atra. I don't know this one. Upasarga Sanskrit Vyakarana. Let's look at that one. Teke. Ekavaram. Atra Bhagini. Sudha Bhagini. Pashyatu.
Aam Bhagini.
Atra Pashyatu Bhagini. Te. Pra... परा अप सम अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि अत्र अस्ति तथा उप उप देन् अत्र किञ्चित् किञ्चित् विवरणं दत्तं प्र अधिकया प्रकर्ष परा उल्टा पीछे अप इसका उल्टा दूर सम अच्छी तरह एक साथ संस्कृत अत्र संस्कृत अत्र उपसर्ग किं सम सम्यक् अहं सम्यक् सम अनु पीछे अनुराधा अनुराधा अनुवाद अनुवाद कैसे होगा अनुवाद विल ओनली हैपन व्हेन देयर इज समथिंग टू फॉलो ना अव नीचे अवगच्छति अवतरति अवतार अवतार यू नो हाँ नीचे जो तार जो पार करके आता है ना वो अवतार सो अव देन निस निस यू नो बिना निर आल्सो बाहर उल्टा निर आल्सो कैन बी बिना दे हैव सम दिस नॉट द ओनली मीनिंग भगिनी भिन्न भिन्न अर्थ आयाति अत्र तु एकं झटिति एकं पंक्तिशः दत्तम् एव
So, Nirodha, when we say Nirodha, Nir is the prefix for that?
Nirodha. So, katham janami Nirodha. So, Rodha, Rudh dhatu, maybe, I don't know. Rudh, let me see, I did look it up once. Rudh ekam dhatu asti. रुद् दिवादि हा निरोधमि वितिस्वन् स्वादि रुद् ऑब्स्ट्रक्चर देयर इज वन मोर साइट कॉल्ड कल्पद्रुमा इट माइट बी टू मच फॉर यू बट आई विल गो हियर टू लुक अप निरोध निरोध नी रुद घई This may not make sense to you, is very much Sanskrit. This whole thing is only in Sanskrit. But to me, it is starting to make sense now. Ni upasarga asti nirtuna. Ni. Ni rudh ghai. Ghai ityukte kim, it becomes a noun, masculine noun. So, rudh. See, rudh. See this? Rudh. So, you can go here and look up rudh. Ni rud. Ekameva asti. Ha, ye. See, rud. To obstruct. Nearing obstruction. Going towards it. See? Nirodha. So you can look up here. Rud. Rudhadi. Gana nama kim? Rudhadi. Ubhayepadi. Sakarmaka. Artha kaha? Avarane. Avarne tyukte kim? Yedeko, see, brackets is avarne we use. It makes a block, no?
Mm-hmm.
It blocks them. You are reading a sentence, something comes in avarne, it's a block, separate. So, nirodha, like that. So, you cannot just look at a word and say, oh, nirodha must be nir plus odha. No, you have to think about it. Good question. So this is how you start exploring. Question is good though. Astu.
There are two meanings now, Bhagini, for Rud. Rudko.
Ah, many, many. Many, Bhagini. Two no. Anya, anya, artha, ayati. Ha. Ha.
So no, Bhagini, not. I think there is on top of Rud, there is another Rud also.
Ah. Many
so that's what I meant.
Even there are two Rud, and I don't remember the Gana of the other one. Are they both different Ganas? I don't know. It could be. You have to, that's why I'm saying, you have to figure it out. So one Rud is Divadi Gana, Rudhyati. This will become Rudhyati.
Divadi.
This
yes.
becomes what?
Ruyadi.
Runaddi. No, Rudha. Ruyadi. It is a Rudhadi Gana. Ruṇakāra madhyāyati, ruṇaddhi. The other one will become ruddhyati, different sound. And meanings, look how many meanings will come in English. But basically it is āvarṇe. And then if you have a upasarga, sometimes upasarga will change the meaning. Sometimes it will enhance the meaning. Sometimes it will oppose the meaning. Sometimes it will remove the meaning. Upasarga does that. In English also it does that. Hindi also it does that. Upasarga. So, the question was upasarga. So, then dus kathin ulta dur bura vi vina then aang tak idhar ni Niche. Niche is one. Niche is like one word meaning only. It doesn't mean that these are all the only meanings out of these upasargas. Many, many meanings arise. Sandarbhe vayam janimaha. Atra kim. Sandarbhe also you can do all your word analysis. Uske baad bhi you realize, oh, Kalidasa Bhagwan used it in this way. Then you're like, oh, another new meaning has risen. So you have to read. The more literature you read, the more you understand the meanings of words. Then, adhi, upar ya, sabse upar, adhi. Api, nikat. Ati, bahut adhik. Su, sundar. Adar. Ut, upar. Abhi samne, prati or, pari charo or, upa samipa. Avagatam, Sudha Bhagini?
Aam Bhagini.
Avagatam. Anya kopi prashna asti va atra?
Bhagini eka prashna asti.
Vadatu.
इति वाक्ये अस्ति एतेषां क्रियापदानां प्रार्थनारूपाणि / आज्ञारूपाणि लिखतु इधर प्रार्थना रूपानी आज्ञा रूपानी स्लैश दिया है, कौन सा मतलब दोनों सेम ही है?
हाँ ना, प्रार्थना आज्ञा इत्युक्ते किम लोट
लोट लकार अस्ति।
हाँ
लिखतु आयाति चेत् ये तो द्वितीय विभक्ति अस्ति।
द्वितीय लिखतु तो विभक्ति ना भगिनी, लिखतु तो क्रियापदम।
हाँ नो भगिनी, व्हाट आई एम टेलिंग, लिखतु लिखति सॉरी लिखतु आया है, इसलिए ये आज्ञा रूपानी प्रार्थना रूपानी द्वितीय विभक्ति अस्ति, बहुवचन पदम ऐसा बोलते हैं।
तो कर्म पदम अस्ति वा?
लिखतु सकर्मक क्रियापदम अस्ति भगिनी।
हा कर्मपदं किं तत्र वाक्ये कर्मपदं किं वदतु?
एतेषां क्रियापदानां प्रार्थनारूपाणि आज्ञारूपाणि। सो लिखो, क्या लिखो? क्रियापदानां लिखो।
एतेषां क्रियापदानां, इन इन क्रिया क्रियापदों को
लिखो।
हाँ
अभी इन क्रियापद एतेषां तो षष्ठी विभक्ति,
एतेषां इत्युक्ते षष्ठी क्रियापदानां षष्ठी बहुवचन। हाँ
बहुवचन
तो हिंदी में वो को हो जाता है, बट इन ऑफ दीज इनके इन क्रियापदों इनके एक्चुअली इन इसका एक्चुअली, लेकिन हिंदी में हम लोग इनको बोलते हैं ना। इनके इनके आज्ञा प्रार्थना लिखिए, इन पदों के आज्ञा प्रार्थना लिखिए।
अगर इधर प्रार्थना रूपाणी आज्ञा रूपाणी इत्युक्ते नपुंसकलिंगम फलम बताया थी ना भगिनी?
हाँ नपुंसकलिंगम बहुवचन
बहुवचन पदम।
हाँ
नपुंसकलिंगं बहुवचनं द्वितीय विभक्ति अस्ति न भगिनी, न प्रथम विभक्ति, कर्तृपदं प्रथम विभक्ति।
कर्तृ कथं भगिनी? आज्ञा रूपाणि प्रार्थना रूपाणि इत्युक्ते कर्मपदम् अत्र। लिखतु किं लिखामि, किं लिखामि?
क्रियापदानि
आज्ञा रूपाणि लिखानि।
ओके आज्ञा रूपाणि क्रियापदानां लिखामि।
क्रियापदानां आज्ञा रूपाणि लिखानि टु मी, लिखानि इज माय लोट। हां इत्युक्ते लिखामि। हां
इधर तो क्रियापदानां एतेषां तो द्वितीय सॉरी षष्ठी विभक्ति बहुवचन पुंलिंग पदम अस्ति, प्रार्थना रूपाणि आज्ञा रूपाणि द्वितीय विभक्ति बहुवचनं नपुंसकलिंग पदम अस्ति।
न एतेषां क्रियापदानां, हा पदानां तु बहुलिङ्गं पुल्लिङ्गमेव
अपि
हा षष्ठी बहुवचन। एतेषां क्रियापदानां विशेषणविशेष्यभाव
आं भगिनि, एतेषां क्रियापदानां विशेषविशेषभाव।
इन् के इन् क्रियापदां के वाट् टु डु, लिखतु किं लिखामि?
प्रार्थनारूपाणि
प्रार्थनारूपाणि लिखामि इति।
कर्मपदं मेरा क्वश्चन् प्रार्थना रूपाणि आज्ञा रूपाणि द्वितीय विभक्ति अस्ति भगिनि।
हा हा कर्मपदं भगिनि,
कर्मपदं द्वितीय विभक्ति बहुवचनं नपुंसकलिङ्गपदम्।
हा इति इति अहं मन्ये।
भगिनि धन्यवादः भगिनि।
हा 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 उत्तमम्। अन्य कोऽपि प्रश्नः अस्ति वा? अस्तु अद्य किं कुर्मः, अस्तु दीप्षिका भगिनी अपि आयाति। नमस्ते भगिनी,
अस्तु, नमस्कारः भगिनी, क्षम्यतां भगिनी.
न न न, चिन्ता मास्तु भगिनि, चिन्ता मास्तु. हा पापाजी प्रणाम. हा अस्तु,
आशीर्वाद.
अद्य किं कुर्मः, अत्र सर्वेषां पार्श्वे इति लिङ्क् अस्ति, अस्ति वा? एकवारम् एकवारं पुनः पुनः चाट् मध्ये प्रेषयामि.
पुटसङ्ख्या किं भगिनि?
हा पुटसङ्ख्या द्वादश, द्वादश द्विशतं, द्वादशाधिकद्विशतम् इत्युक्ते किं, 212, द्वादशाधिकद्विशतं, द्वादशाधिकद्विशतं, 212 अत्र. हा अधुना तु स्पष्टजातम्. अस्तु, अद्य अद्य किं कुर्मः.
भगिनि, डिड् यु शेर् द वेब्सैट्? डु यु वाण्ट् अस् टु ओपन् इट् सेपरेट्लि?
इस् अप् टु यु भगिनि, यु डिसैड्.
बट् हाव् यु शेर्ड् इट् भगिनि? सोरि, ऐ डिड् नाट् नोटिस् इट्.
सी भगिनि, चाट् मध्ये पश्यतु एकवारं.
चाट्, ओके भगिनि.
चाट् चाट् मध्ये एकवारं पश्यतु. अस्तु, हा दीप्षिका भगिनी पठतु भगिनी.
आं भगिनि, हा उदाहरण अभ्यासः 105
इत्युक्ते किं संस्कृतभाषायां?
100 पञ्चाधिकशतं विशेषक्रियापदानां विशेषक्रियापदानां मिश्रिताः प्रयोगाः.
मिश्रिताः प्रयोगाः, मिश्रिताः इत्युक्ते
मिश्रिताः एक, मिक्स्चर करके,
हा मिले हुए, मिले हुए, हा
मिले हुए.
कस्य कस्य मिश्रणम् अत्र अभवत्? कस्य मिश्रणम् अभवत्?
कैसे मिले हुए?
न, कस्य कस्य इत्युक्ते किम्?
कस्य मतलब किसका?
कस्य मिश्रणम्?
किसका मिश्रण? विशेष क्रियापदानां का मिश्रण?
वयम् अभ्यासपुस्तके मध्ये विशेषक्रियापदानि किञ्चित् पठामः. स्मरन्ति सर्वे
विशेषक्रियापदानि?
पुटसङ्ख्या तु स्मरामि. किं,
द्वाविंशतिः?
धन्यवादः भगिनी. द्वाविंशतिः, हा विशेष अभ्यासः अत्र दत्तं.
किन्तु तत्र शृणोति ददाति,
हा किञ्चिदेव तत्र धातुतः क्रियापदानां दत्तं, क्रियापदानि दत्तम्. अत्र अन्य आयाति. यदि वयं न जानीमः किं कुर्मः इति धातु स्वीकृत्य अष्टाध्यायी मध्ये एकवारं परिशीलयामश्चेत् सम्यक् समीचीनं रूपं वदाम. अवगतम्?
आं भगिनि.
किं वदामि अहम्, एकवारं पुनः स्मारयतु. एकवारं पुनः स्मारयतु.
ये मतलब यहाँ पे जो ब्लैंक में जो शब्द आएगा वो हमको अष्टाध्यायी में जाके ये इसके रूट वर्ड से शब्द पता लग जाएगा.
हाँ उत्तमम्. वारं वारं कृत्वा सर्वं मनसि तिष्ठति. अस्तु हाँ पठतु अत्र दीक्षिका भगिनी करोतु.
उदाहरणानुगुणम् उचितैः क्रियापदरूपैः रिक्तस्थानानि पूरयन्तु.
पूरयन्तु
पूरयन्तु.
अत्र क्रियापदं किम्?
क्रियापदं पूरयन्तु
इति विषये वदतु. किमपि परिचय वदतु.
पूरयन्तु मतलब पूरा करिये.
संस्कृतभाषायां परिचय वदतु भगिनी. पदस्य पदपरिचय.
पदपरिचय तो फिर हमको अष्टाध्यायी में जाना पड़ेगा. एक मिनट.
प्रक्रिया किं भगिनी वदतु एकवारं.
प्रक्रिया पूरयन्तु पूरयन्तु
पूरयन्तु प्रक्रिया वदतु भगिनी.
प्रक्रिया प्रक्रिया मतलब इधर
प्रक्रिया इत्युक्ते अधुना किं भवती किं करोति अत्र एकमेकं सोपानं किं स्टेप् वैज् प्रक्रिया किं पूरयन्तु पूरयन्तु लकार किं भगिनि.
अच्छा पूरा कीजिए. हाँ लोट लकार.
हाँ अग्रे
लोट लकार सकर्मक क्रियापदम्
न अत्र पूरयन्तु पूर्णतया वदतु भगिनी. लोट् किम् पुरुषः वचनः वचनं किं पूर्णतया वदतु भगिनी.
अच्छा अच्छा हा तो पूर्णयन्तु इज लोट् लकार 1.1 नहीं पूर्यन्तु पूर्यतु पूर्यन्तु प्रथम पुरुष एकवचन है क्या.
कथम जानीमः पूर्यन्तु
लिखतु.
लिखतु
इज 1.1 ना तो वैसे है ये क्या पूर्यन्तु.
यदि लिखतु बहुवचनरूपम् अस्ति चेत् रूपं किम्.
लिखतु बहुवचन.
अन्य कोऽपि वदतु. सुधा भगिनी वदतु. लिखतु
लिखन्तु
लिखन्तु
लिखन्तु द्विवचने
पूर्यन्तु
द्विवचने वदतु.
लिखतः
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 कथं जानीमः.
अष्टाध्यायी मध्ये टैप् करोतु. अवगतम्
अवगतम्.
ओ गीला है बट्टा सब.
करोतु भगिनि. एकम्
हाँ पूर्यन्तु इस प्रथम पुरुष बहुवचन 1.3
अत्र वदतु भगिनी.
सर्वाणि रूपाणि एकवारं वदतु लोट्
पूरयतु पूरतु
पूरयतु
पूरतु पूरयतात् पूर्यताम् पूर्यन्तु पूरतात् पूरताम् पूरन्तु पूरय पूर पूरयतात् पूरयतम् पूरयत् पूरयत
बहूनि बहूनि रूपाणि दत्तं प्रथमपुरुष एकवचनरूपाणि वदतु प्रथम
प्रथमपुरुष एकवचन पूर्यतु पूरयतु
भगिनी पूरयतु
पूरयतु पूरतु पूरयतात् पूरतात्
भिन्नानि बहु सारे रूपाणि अस्तु द्विवचने
पूर्यतां पूरतां
पूरयतां पूरतां
पूरतां
द्वे अपि अत्र अस्ति हा बहुवचने
पूरयन्तु पूरन्तु
यकार अत्र अस्ति अकार नास्ति अत्रापि यकार अस्ति यकार नास्ति अस्तु मध्यमपुरुष वदतु भगिनि एकवचनरूपे
पूरय पूर पूरयतात् पूरतात्
द्विवचने
पूरयतं पूरतम्
बहु
पूरयतत् सोरि पूरयत पूरत्
पूरत
पूरत पूरयत पूरत पूरयानि पूराणि पूरयाव पूराव पूरयाम पूराम
अन्य आत्मनेपदीरूपम् अपि सन्ति शैलजा भगिनी पठतु एकवारम्
आत्मनेपदी पूरयतां पूरयेतां पूरयन्तां पूरयस्व पूरयेतां पूरयत्वं पूरयै पूरयावहै पूरयाहै
उत्तमम् उत्तमं हा दीक्षिका भगिनी अधुना अत्र तु क्रियापदमस्ति तदनन्तरं वाक्ये किमपि एकम् अन्यपदस्य परिचय वदतु कीदृशपदं कीदृशधातु पूर् धातु कीदृशधातुः अस्ति अकर्मक वा सकर्मक वा
सकर्मकक्रियापदम्
अस्तु
पूरयन्तु सकर्मकक्रियापदं लोट् लकार 1.3
1.3 इत्युक्ते प्रथमपुरुष
प्रथमपुरुष बहुवचन
अनन्तरं तत्तु क्रियापदं किमपि अन्यपदस्य वदतु
रिक्तस्थानानि रिक्तस्थानानि मतलब रिक्तस्थानों में तो रिक्तस्थाना
में इत्युक्ते मे इत्युक्ते विभक्तिरूपं किं भगिनि
सप्तमी विभक्ति
अत्र सप्तमी अस्ति वा
नै सप्तमी नै मे कर्तानि परं
शैलजा भवतु विभक्तिरूपं किम् अत्र रिक्तस्थानानि
रिक्तस्थानानि नपुंसकलिङ्गपदं बहुवचनं द्वितीया विभक्ति
कथं जानीमः द्वितीया
क्रियापदी रिक्तस्थानानि सकर्मक पूरयन्तु सकर्मक अस्ति चेत् कर्मपदं रिक्तस्थानानि फिल् इन् द ब्लाङ्क्स् सो किस्को पूरयन्तु किं को पूरयन्तु इस् रिक्तस्थानानि को पूरयन्तु
उत्तमं तदेव कर्मपहुवचन नपुंसकलिङ्गमस्ति इत्युक्ते किं द्वितीयविभक्ति बहुवचनरूपं रिक्तस्थानानि पूरयन्तु उत्तमं अधुना दीप्तिका भगिनी अग्रिमं करोतु अग्रिमं पद धन्यवादः उत्तमं
धन्यवादः
क्रियापदरूपैः क्रियापद रूपैः क्रियापद के रूप
न विभक्ति किं भगिनी के रूप इत्युक्ते यु के नाट् जस्ट् गेस् ऊहां मा करोतु अत्र अत्र रूप विभक्तिरूपं किं प्रथमतु इति अवगन्तव्यम् किमपि पदस्य विभक्तिरूपं किम् इति कथं जानीमः शैलजा भगिनी पुनः साहाय्यं करोतु एकवारम्
उचितैः क्रियारूपैः इस् लैक् सो इट् इस् लैक् तृतीयविभक्ति एण्ड् नो इट्स् नाट् तृतीया सोरि वन् मिनिट् भगिनि तृतीयविभक्ति बहुवचनरूपम् अस्ति एण्ड् सो इट् इस् उचितैः क्रियापदरूपैः विशेषणविशेष्यभावम् अस्ति इन्स्ट्रुमेण्ट् सो इट् इस् लैक् यूसिङ्ग् द वर्ड् यूसिङ्ग् द क्रियापदं फिल् इन् द ब्लाङ्क्स् दट्स् वाट् इट् इस् सेङ्ग् द सेण्टेन्स् इस् सेङ्ग् भगिनि
तृतीयविभक्ति अर्थः कः भगिनि इत्युक्ते किम्
इट् इस् द्वारा सो इट् यूसिङ्ग् क्रियापदके द्वारा इन् रिक्तस्थानि पूरयन्तु
तदेव उत्तमम् उत्तमम् अवगतं दीक्षिका भगिनी दीक्षिका भगिनी अवगतम् अधुना
हा
क्रियापदरूपैः शैलजा भगिनी एकवारं तृतीयरूपाणि विभक्तिरूपाणि वदतु एकवचन द्विवचन अपि बहुवचन एकवारं स्मारयतु
भगिनि उचितैः क्रियापदरूपैः क्रियापदरूपेण क्रियापदरूपाभ्यां क्रियापदरूपैः
नपुंसकलिङ्ग अस्ति चेत्
नपुंसकलिङ्ग अस्ति चेत्
पुंलिङ्ग अस्ति चेत् समानेव तृतीय तु
आं भगिनि
उत्तमं अधुना दीप्षिका भगिनि
उचितैः उचितैः तृतीयविभक्ति उचितैः
तृतीयविभक्ति रूपं किं वचनं किं
बहुवचन
अधुना कीदृशपदं किम् अधुना सम्बन्धः अस्ति अत्र किमपि अन्यपदस्य किमपि सम्बन्धः अस्ति अत्र
हा तु क्रियापदरूपैः तृतीयविभक्ति तु उचितैः तृतीयविभक्ति
हा इत्युक्ते किं
मतलब उचित रूप उचित जो रूप के द्वारा क्रियापदम जो के रूप रिक्त स्थानों में भरिए
हाँ किंतु संस्कृत भाषायां वयं कथं वदामः तत्र
विशेषण विशेष तो दोनों की विभक्ति सेम होती
विशेष्यभावः
की विभक्ति सेम होती है
हाँ विभक्ति अपि लिङ्गम् अपि वचन
वचनं सब सेम
सर्वाणि समान एव तदेव वयं जानीमः ओ अत्र विशेषण अस्ति अन्यथा कथं जानीमः कस्य पदस्य विशेषणं किम् न जानीमः किमर्थं संस्कृतभाषायां वाक्ये किमपि पद कुत्रापि अभवत् अपि समीचीनं साधारणतया वर्ड् आर्डर् इत्युक्ते संस्कृतभाषायां बहु लघुरूपेण आयाति वर्ड् आर्डर् इस् नाट् प्रमुख इन् संस्कृत तदनन्तरं कथं जानीमः तेन एव विशेषणविशेष्यरूपभावः तेन एव वयं जानीमः ओ अत्र विशेषण अस्ति इति उत्तमम् अग्रिमं पदस्य स्वीकृत्य वदतु भगिनि
उदाहरणानुगुणम् उदाहरणानुगुणम्
अनुगुणम् उदाहरण अनुगुणम् किन्तु एकमेव पदम् अस्ति अत्र उदाहरणानुगुणम् एकमेव पदम् अस्ति अत्र
उदाहरण उदाहरण इस् नपुंसकलिङ्गपदं न
न न न न न न न तत् सोपानं वयं मा कुर्मः करोतु भगिनि अधुना तु उदाहरणानुगुणम् एकमेव पदमस्ति
उदाहरणानुगुणम्
एकमेव
नपुंसकलिङ्ग् पदं नहीं होगा चेक् करना पडेगा
हा गुणं गुण
गुण गुण गुणम्
अनुगुणम् इति
अनुगुणम्
अनुगुणम् अनुगुणं कीदृशपदम् अनुगुणम् अनुगुणम् एकं तु क्रियाविशेषण अस्ति
अनुगुणं क्रिया एडवर्ब
अत्र तु किं कीदृशपदम् अत्र विशेषण वा अपि एकं तु पुंलिङ्गं नेचुरल् पिक्युलियारिटि तत्तु इण्ट्रेस्टिङ्ग् अनुगुणम् अपि किम् अव्ययपदम् अस्ति
अव्ययपदम्
अकार्डिङ्ग् टु वन्स् मेरिट् अनुगुणम् अनुगुणम् अन्य अव्ययपदमस्ति अग्रीयब्लि अत्र किम् अनुगुणम् इत्युक्ते अव्ययपदम् अस्ति चेत् उचितैः क्रियारूपैः रिक्तस्थानानि पूरयन्तु इत्युक्ते किं स्यूटेबलि स्यूटेबलि इत्युक्ते किं विशेषणक्रियापदम् इत्युक्ते किं क्रियापदं किं पूरयन्तु तस्य विशेषणं किम् उदाहरणानुगुणं किमर्थं किमपि न परिवर्तनम् अभवत् अव्ययपदम्
अव्ययपदम्
उत्तमम् एक प्रथमा करोतु भगिनी अत्र
सा संस्कृतं न जानाति बिल्कुल सही बिल्कुल सही अब आगे और कोई करेगा
अस्तु वदतु भगिनि, एकमेकं पदस्य
स्वीकृत्य वदतु। आगे तु हमको आते नहीं, अब बाकी सब बाकी लोग करेंगे।
वदतु भगिनि।
वयं वयं
न न सा संस्कृतं न जानाति, अत्र एकमेकं पदं किं क्रियापदं किम् इति वदतु।
अच्छा,
क्रियापदं किं, कर्तृपदं किं, कर्मपदं किम् इति इति वदतु।
जानाति क्रियापदं, कर्मपदं संस्कृतम्, कर्मपदं संस्कृतम्, संस्कृतं जानाति न जानाति। सा तो वो हो गया ना, सर्वनामपदं सा।
हा उत्तमं, सर्वनाम तु उत्तमं, किन्तु अत्र वाक्ये कीदृशपदम्? एकं तु क्रियापदम् अस्ति, एकं कर्मपदम् अस्ति,
न तु अव्ययपदम्।
न अव्ययं पदम् अस्ति, सा कीदृशपदम् अत्र?
सा स्त्रीलिङ्ग सर्वनामपदं, वः।
तत्तु सत्यं, किन्तु की संस्कृतभाषायां संज्ञा का, संज्ञा किम् अत्र पदस्य संज्ञा? कोऽपि अन्य कोऽपि वदतु।
कर्तृपदम् अस्ति,
कर्तृ, कर्तृपदं भगिनि। कर्तृपदम् इत्युक्ते किं सुधा भगिनि?
कर्तृपदम् इत्युक्ते कर्णेवाला,
कर्णेवाला
न जानाति, कः न जानाति, का न जानाति, सा न जानाति,
न जानाति।
प्रथमविभक्ति स्त्रीलिङ्ग आकारान्त सर्वनाम क्रियप, सारि।
अधुना प्रश्न उदेति, संस्कृतं कर्मपदम् अस्ति वा? कोऽपि वदतु। ज्ञा धातु कीदृशधातु? कोऽपि वदतु।
ना धातु इति सकर्मक धातु,
सकर्मक अस्ति, सकर्मक अस्ति चेत्
संस्कृतं कर्मपदम् अस्ति।
एकवारं पश्यतु सर्वे, तदनन्तरमेव वयं जानीमः, वारं वारं कृत्वा। अस्तु उत्तमम्, अधुना किं कुर्मः? शीघ्रं, कः जानाति? सा जानाति। कं जानाति? संस्कृतं जानाति। न जानाति? ओ, सा संस्कृतं न जानाति इति एकवारं शीघ्रं वदतु दीक्षिका भगिनी। लघु लघु प्रश्न, लघु लघु उत्तरं। कः जानाति इति,
कः जानाति,
का जानाति, सा जानाति, जानाति वा? नो, न जानाति। कं, कं न जानाति? कम् इत्युक्ते किं भगिनि? प्रश्नवाचक,
क्या नहीं जानति, कम मतलब क्या,
क्या तो उत्तमं, किन्तु संस्कृतभाषायां कम् इत्युक्ते किं? कम् इति, हा कोऽपि अन्य कोऽपि वदतु।
कौन नहीं जाना है,
कौन, कौन इत्युक्ते संस्कृतभाषायां
कम, कम
न वदतु, परिचय वदतु। कम,
कम इत्युक्ते द्वितीया विभक्ति एकवचन,
प्रातिपदिकं,
प्रातिपदिकं किं शब्द,
किं, किं
स्त्रीलिङ्गमकारान्त किं शब्दः, विभक्ति एकवचनपदं कम, द्वितीय द्विवचनं के, बहुवचनं काः।
उत्तमं, तदेव उत्तमं, धन्यवादः दीक्षिका भगिनी। अस्तु अन्य, हा शिवरूप भगिनी करोतु एकवारम्।
आं भगिनि,
अग्रिमम्।
आं भगिनि, वयं संस्कृतं जानीमः. वयम् इत्युक्ते जानीमः इति सकर्मकक्रियापदम् अस्ति. बहुवचनं संस्कृतं संस्कृतं नपुंसकलिङ्गं द्वितीयविभक्ति एकवचनपदमस्ति. वयम् उत्तमपुरुष बहुवचनं अस्ति भगिनि. बहुवचनं उत्तमपुरुष
वयं वयं प्रातिपदिकं किम्?
अहं भगिनि
न प्रातिपदिकम्
एकनिमिषम्
अन्य कोऽपि वदतु. अस्मद् उत्तमम्. अस्मद् इत्युक्ते अस्मत्तः आयाति. उत्तमं लघु प्रश्न पृच्छतु. लघु लघु प्रश्न
काः काः नयति. इट्स् वयं रैट् सो देन् कानि जानीमः.
न कानि कथं भगिनि? वयं कीदृशपदं वयं
किं भगिनि किं जानीमः?
न क्रियापदं किं?
क्रियापदं तु जानीमः भगिनि.
संस्कृतं कीदृशपदं?
संस्कृतं नपुंसकलिङ्गं द्वितीयविभक्ति
कर्मपदं. वयं कीदृशपदं?
वयं बहुवचनम् अस्मद्
न भगिनि. कर्तृपदं कर्मपदं क्रियापदम् इति एव इति प्रश्नः मम. कीदृशपदं वयं?
वयं कर्तृपदमस्ति भगिनि.
कर्तृपदम् अस्ति चेत् वचनं किम्?
वयं वचनम् उत्तमपुरुषः अस्ति. वचनं
वचन इत्युक्ते
बहुवचनकर्तृपदं.
बहुवचनकर्तृपदम् एकमेव रूपम् अस्ति प्रश्नवाचक. वदतु
काः भगिनि?
काः अपि
कान्
न भगिनि कर्तृपदम्
कः कौ के?
धन्यवाद दीक्षिका भगिनी. कः कौ के?
कः कौ के?
स्त्रीलिङ्ग् अस्ति चेत्?
स्त्रीलिङ्ग् अस्ति चेत् का काः
का न
का
के
काः
पृच्छतु. लघु लघु प्रश्न पृच्छतु.
काः जानीमः संस्कृतं जानीमः.
न काः जानीमः उत्तरं वदतु.
वयं जानीमः.
तदनन्तरं
किं जानीमः संस्कृतं जानीमः.
न किं यदि नपुंसकलिङ्ग् अस्ति चेत् किं के कानि अस्तु. यदि वयं जानीमः नपुंसकलिङ्ग् अस्ति चेत् एक्चुलि यदि उत्तमं भगिनि. यदि वयं न जानीमः अपि नपुंसकलिङ्गमेव रूपं कुर्वन्ति उत्तमम्. किं जानीमः पुनः वदतु.
किं जानीमः संस्कृतं जानीमः. इधर हम लोग के भी बोल सकते बनी के
के जानीमः वयं जानीमः.
वयं जानीमः
के जानीमः वयं जानीमः.
किं जानीमः संस्कृतं जानीमः.
संस्कृतं जानीमः उत्तमं. धन्यवादः भगिनि. सुधा भगिनी अग्रिमं करोतु.
आरक्षकः
चोरं गृह्णाति
गृह्णाति गृह्णाति इत्युक्ते
गृह्णाति इत्युक्ते उपादाने क्रियादि उभयपदी सकर्मकक्रियापदं प्रथमपुरुषः एकवचनम्
हिन्दीभाषायाम् अपि आङ्ग्लभाषायाम् इत्युक्ते किं
टु टेक् और् टु अप्टेन्
टु केच् टु ग्राब् टु टेक् गृह्णाति गण किम्
गण इति नवमगणः क्रियादिगणः
क्रियादिगणः उत्तमम् एकमेकं पदस्य स्वीकृत्य वदतु कीदृशपदम्
आरक्षकः चोरं गृह्णाति चोरम् इति चोर इति चोरं पुंलिङ्गपदं द्वितीयाविभक्ति एकवचन कर्मपदमस्ति
कर्मपदमस्ति अन्य
आरक्षकः इति पुंलिङ्गपदं प्रथमाविभक्ति एकवचन कर्तृपदमस्ति
उत्तमं लघुप्रश्नः पृच्छतु
कः चोरं गृह्णाति आरक्षकः चोरं गृह्णाति
अपि आरक्षकः कं गृह्णाति
आरक्षकः कं गृह्णाति आरक्षकः चोरं गृह्णाति
उत्तमम् आरक्षकः चोरं किं करोति
आरक्षकः चोरं गृह्णाति
उत्तमं तदेव उत्तमं हा शैलजा भगिनी अग्रिमं करोतु भगिनि
आं भगिनि महिला शाटिकां क्रीणति
न
क्रीणति
क्री धातु कीदृशधातु भगिनि
क्री धातु क्रीणीते क्रीणति ऐ केन् से क्रीणति नो भगिनि क्री धातु
कीदृशधातु
क्रीणति उभयपदं सकर्मकः डुक्रिङ्ग् डुक्रिङ्ग् क्री डुक्रिङ्ग्
डुक्रिङ्ग् actually is not dukre kreenati ityukte kri
to buy to purchase
ha tadeva bhagini is not dukre dukre to anya atra kri ha this one ha
okay
kri ha atra this one डुक्रीय डुक्री हा डुक्रीय भगिनि डुक्रै इस् अ करणे हा क्रु धातु डुक्रन् किन्तु डुक्रीय दीर्घ
क्रीय
अस्ति डुक्रीय इति
आं भगिनि
अधुना
महिला शाटिकां क्रीणति इति पदं
भगिनि क्रीणति कथम् अयति अत्र पश्यतु एकवारं क्रीणति वा
क्रीणाति सोरि भगिनि क्रीणाति क्रीणाति इति शब्दम् इति शब्दः सकर्मकक्रियापदम् अस्ति सकर्मक अस्ति चेत् शाटिकां द्वितीया विभक्ति एकवचनशब्दः शाटिकां हा शाटिका शाटिकाम् इस् बहुवचनशब्दः
बहुवचन द्वितीया विभक्ति
शाटिका नो भगिनी इट् इस् शाटिका मीन्स् बहुवचनशब्दः शाटिका शाटिकां
भगिनी लिङ्गं किम्
लिङ्गं स्त्रीलिङ्गशब्दः शाटिका इस् स्त्री स्त्रीलिङ्गपदम्
एकनिमिष एकनिमिष कीदृशस्त्रीलिङ्गं पदम्
आकारान्त स्त्रीलिङ्गपदम्
अस्ति चेत् आकारान्त अस्ति चेत् शब्दमञ्जर्यां किं दत्तं
रमावत्सप्ते
पठतु एकवारं रमा पठतु
रमा रमे रमाः द्वितीय रमां रमे रमाः द्वितीयविभक्ति बहुवचनशब्दः
अत्र शाटिकां विभक्तिरूपं किम्
शाटिकां द्वितीयविभक्ति बहुवचनशब्दः रूपमस्ति
बहुवचन पठतु रमा वद रमा वत् पठतु रमा शब्द किं पदं
रमां रमे रमाः
अत्र शाटिकाः अस्ति वा
शाटिकां शाटिका को इसिलिये एकवचनशब्दः सोरि भगिनि सोरि ऐ गाट् कन्फ्यूस्ड्
एकवचनशाटिकां किमर्थं वारं वारं मनसि वदतु वदतु रमा रमे रमाः रमां रमे रमाः वारं वारं वदतु प्रथमा द्वितीयविभक्ति प्रमुख अस्ति ते द्वे विभक्तिरूपाणि प्रमुख सन्ति
किमर्थं वारं
वारम् अपि पुंलिङ्गं किम् अपि नपुंसकलिङ्गं किं हरि अस्ति चेत् किं गुरु अस्ति चेत् किं मति अस्ति चेत् किं प्रथमविभक्ति द्वितीयविभक्ति एव वारं वारं मनसि आयाति शाटिकां तु कर्मपदम् अस्ति अन्य
महिला इति शब्दः स्त्रीलिङ्गपदशब्दं शब्दः एकवचनशब्द एकवचनपदं कर्तृपदम् अस्ति कर्तृपदम् अस्ति
कीदृशस्त्रीलिङ्गं पदम्
महिला इस् आकारान्त एकवचनशब्दः स्त्रीलिङ्गपदम्
तदेव उत्तमम् उत्तमम् अधुना लघुप्रश्नः कः भगिनि लघु लघु प्रश्नः पृच्छतु
महिला किं क्रीडाति
किं क्रीडाति वा
नो सोरि महिला किं क्रीणाति क्रीणाति
किं क्रीणाति
महिला शाटिकां क्रीणाति
यदि वयं न जानीमः लिङ्ग लिङ्गं किं शाटिकां वा किमपि गृहं वा कारयानं वा लिङ्गं न जानाति चेत् किन्तु अत्र तु वयं जानीमः शाटिकां अत्र प्रश्न पुनः पृच्छतु पृच्छतु
महिला के सोरि काः नो सोरि महिला का क्रीणाति
का
क्रीणाति
का कीदृशपदम्
सा इस् प्रश्नवाचक स्त्रीलिङ्गशब्दः एकवचनशब्दः अस्ति
कर्तृपदं न अत्र तु कर्तृपदम् अस्ति वा प्रश्न किम्
नै भगिनि प्रश्नतो द्वितीयविभक्ति महिला का क्रीणाति
भगिनि किं तु भगिनि
आं भगिनि
यदि कर्मपदं प्रश्नवाचकशब्दकर्मपदम् अस्ति चेत्
कर्मपद आं भगिनि प्रश्नवाचकशब्दः कर्म
प्रश्नवाचकपदं किम् काकीकाः अन्तरं
काकीकाः
धन्यवादः काम् आयाति काम् महिला काम् क्रीणाति काम् इत्युक्ते किं दीक्षिका भगिनी वदतु
काम् द्वितीयविभक्ति एकवचन स्त्रीलिङ्ग प्रश्नवाचकः शब्दः काम्
आकारान्त स्त्रीलिङ्ग
आकारान्त आकारान्त स्त्रीलिङ्ग पदम्
हा प्रश्नवाचक आम् भगिनि काम्
काम् महिला काम् क्रीणाति वदतु
महिला शाटिकां क्रीणाति महिला कां क्रीणाति महिला शाटिकां क्रीणाति so because it is a thing we have to use it kaam
not thing because it is a feminine object thing feminine. means nothing thing means nothing
yes yes thing
means nothing
yes.
in english doesn't
there are ha aam bagini
ha thing means what thing if you don't know then you use kim but yes, you yes, know if she is buying a sari sari you know is aakaranta if you know yes. it is akaranta strilinga padam then you must ask the adequate question word which is what kam kimartham
since
kam?
I want to ask in dvitiya vibhakti so I have to use the word kam dvitiya vibhakti prashnavachaka ekavachana shabdah is kam for asking a question
answering and asking karma padam eva
aam bhagini
uttamam agriham karotu dipshika bhagini
आं भगिनि वेर् इस् द सेण्टेन्स् ऐ काण्ट् सी
ओ सी भगिनी अत्र लिङ्क् अहं प्रेषयामि चाट् मध्ये
अच्छा ओके 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 ऐल् सी देर्
अन्यथा अत्र अपि
ते शिष्टाचारं न ज्ञा धातु नष्टाध्याय डॉट कॉम में खोला हमने तो उसमें बहुत सारे हैं
अत्र भगिनी भगिनी मम मम स्क्रीन शेयरिंग मध्ये पश्यतु एकम सी अत्र किम अत्र किम अत्र किम अत्र किम भवती भवती कृतवती तत्तु तत्वाक्यं भवती एव पठति न सेम् समानेव धातु ज्ञा धातुतः जानाति आयति
ते शिष्टाचारं न जानाति
वदतु शैलजा भगिनी
आं भगिनी
वदतु किं वक्तुम् इच्छति वा
नो नो सोरि भगिनी नो
भगिनी ज्ञा धातु कीदृश धातु गण किम्
गण
गणसङ्ख्या किम् अन्य कोऽपि वदतु
एक
नवमः गणः
नवमः
गणः सुधा भगिनी कथं जानीमः नवमः एव
नवमः इति अष्टाध्यायी मध्ये न्या धातु तः इति आयाति
दीप्षिका भगिनी कथं जानीमः अष्टाध्यायी मध्ये ज्ञा एकवारं प्रथम तु जानाति अपि क्षम्यताम् जानाति अथवा ज्ञा धातु फर्गेट् हौ टु टैप् ज्ञा धातु एकवारं स्वीकरोतु अपि अत्र अन्वेषणं कुर्मः अस्तु अत्र किं किम्
अस्ति तु स्क्रीन् हमारा भी है
हा अस्तु
प्रथम
तु किं to kill, to hurt, to please, satisfy, please, api, marana, toshana, nishama, neshu. Astu, anya kim api, asti va, na, avabodhane, avabodhane, atra artha ka bhagini, atra, na dhatu janati, artha ka bhagini?
Arth, I do not know. जानाति नहीं जानते
वाक्यस्य अर्थ मम प्रश्न किं जानाति एकम् एव पदम् अस्ति
पदस्य अर्थः टु नो टु नो
टु नो टु नो इत्युक्ते किम् अवबोधने एव किम् अत्र अवबोधने अत्र तु ज्ञा अस्ति तत्तु सत्यं किन्तु अर्थः तु किल् टु हर्ट् टु प्ले तत्तु अस्माकं वाक्ये तत्तु अर्थः समीचीनं नास्ति न भगिनि एकम् अन्य अस्ति अत्र न अपि अन्य एकम् अन्य अपि अस्ति टु आर्डर् तत्तु अपि समीचीनं नास्ति अत्र तु किम् अवबोधने
अवबोधने
गणसङ्ख्या किं क्रियादिः
नवम
नवम नवम गणः
नवम नवम गणसंख्या
नवम हा कीदृश धातु
क्रियादिः
कीदृश धातु
परस्मैपदी सकर्मकः
सकर्मक धातु अस्ति उत्तमम् अधुना वाक्यं पुनः पश्यामः अस्तु ते ते इत्युक्ते किं वचनं किं वचनं किम्
ते बहुवचनं न सर्वनामपदं सर्वनामपदं
पुंलिङ्गम् अस्ति चेत् बहुवचनं स्त्रीलिङ्गम् अस्ति चेत्
स्त्रीलिङ्गम् अस्ति चेत् तो वो बीच का हो गया ना सातेता द्विवचने
द्विवचने उत्तमम् अधुना किमपि हा अधुना पुंलिङ्गम् अस्ति चेत् ते ज्ञा धातुतः किम् आयाति ज्ञा धातुतः किं रूपम् आयाति
जानन्ते तो जानन्ति
जानन्ति उत्तमम्
जानन्ति
जानन्ति उत्तमम् अधुना ते किं जानन्ति
ते किं जानन्ति ते शिष्टाचारं जानन्ति
न जानन्ति एव
न जानन्ति
अधुना प्रश्नम् हा शिष्टाचारं कीदृशपदम् अत्र
शिष्टाचारं न जानाति
कर्तृपदं वा क्रियापदं वा कर्मपदं वा अव्ययपदं वा
कर्म कर्तृपदं कर्मपदं
कर्मपदं जानाति एव
कर्मपदं
कर्तृपदं किं
कर्तृपदं ते ते कर्तृपदं शिष्टाचारं कर्मपदं न अव्यय जानन्ति क्रियापदम्
उत्तम उत्तम एकं प्रश्न पृच्छतु लघुप्रश्नकः
ते किं न जानन्ति ते शिष्टाचारं न जानन्ति
उत्तमम् अधुना तु शिष्टाचारः कीदृशलिङ्गं किं कथं जानीमः शिष्टाचारपदस्य लिङ्गम् कीदृशलिङ्गम् अत्र तु पुंलिङ्गं
दत्तं
पुंलिङ्गं दत्तं हा प्रश्नवाचक पुनः पृच्छतु भगिनी
पुल्लिंग तो ते ते है ना उसमें तो के पुल्लिंग कह कौ के तो के
अस्तु किन्तु वयं तु शिष्टाचार इति पदं पश्याम न शिष्टाचारः तु पुंलिङ्गम् अस्ति चेत् तत् स्वीकृत्य प्रश्नवाचक प्रश्नवाचकशब्द
अच्छा हा ओके ओके हा तो इट विल बी ते ते कम ते कम न जानन्ति
उत्तरम्
उत्तरं ते शिष्टाचारं न जानन्ति
उत्तमं तदेव सुन्दरं भगिनी धन्यवादः शिवरूपा भगिनी करोतु
आं भगिनि गृह्णानि
न न न भगिनि भगिनि सम्यक् पठतु
गृहिणी सारी भगिनि गृहिणी रोटिकां गृहिणी रोटिकां ददामि ददाति ददाति
दा धातु कीदृशधातु
दा धातु ददाति सकर्मकक्रियापदमस्ति भगिनि she is giving food the meaning wo khana de rahi hai okay so now gruhini gruhini
na 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 kriya padasya vishaye kimapi vadatu bhagini
क्रियापदस्य विषये भगिनि ददाति ददा ददा
गण गण किं
गण गण जुहोत्यादिः गण
जुहोत्यादिः उत्तमं कथं जानीमः जुहोत्यादि एव अन्य अपि एकं दत्तं अत्र किं दत्तं दा दत्तं दात्री त्रीणि हा त्रीणि धातु आयाति अत्र त्रीणि धातवः दा भ्वादि दा अदादि दा जुहोत्यादि अर्थः कः
देना दे रही है इसलिए वो मीनिंग करेक्टली देखना है अगर देना सेट हो रहा है तो
हाँ किन्तु अत्र भगिनी पश्यतु एकवारं पश्यतु दा दाने वादिगणे अपि अस्ति
भगिनि
वादिगणे अपि अस्ति एकवारं पश्यतु कीदृश किन्तु अत्र तु रूपं परिवर्तनं भवति यच्छति आयाति न न न गिविङ्ग् ओन्लि यच्छति तु गिव् दाने यच्छति याचति याचति इत्युक्ते बेगिङ्ग् यच्छति तु किन्तु किन्तु अत्र तु वयं कथं जानीमः अत्र तु विशेष नास्ति ति तः अन्ति यच्छति अस्ति चेत् ति तः अन्ति किन्तु अत्र अस्माकम् अभ्यासे किं दत्तं विशेषक्रियापदानाम् इत्युक्ते तीतः अन्ति प्रायः नास्ति तत्र तीतः अन्ति नास्ति चेत् पुनः दा अत्र तु जुहोत्यादिगणे एव अस्ति कथं ददाति दत्तः ददति किञ्चित् भिन्नविशेषरूपाणि अत्र तेन वयं जानीमः दा जुहोत्यादिगणे एव अत्र हा सकर्मक अस्ति चेत् हा लघु लघु वाक्यं पृच्छतु भगिनि
ओके भगिनि गृहिणी किं ददाति
किं तु न भगिनी अत्र रोटिकां
कं ददाति
कं वा
गृहिणी
लिङ्गं किम् अत्र
रोटिकां रोटिका एकनिमिष
कां ददाति गृहिणी कां ददाति
गृहिणी कां ददाति किमर्थं कां शिवरूपा भगिनी
कां द्वितीय विभक्ति अस्ति भगिनी कां मतलब क्या क्या दे रहा है
किमपि क्या कमपि क्या किन्तु किमर्थं काम् अत्र
काम् अर्थः स्त्रीलिङ्गः स्त्रीलिङ्गः द्वितीयविभक्ति एकवचनमस्ति न भगिनि
आकारान्त स्त्रीलिङ्गपदम् अस्ति चेत् काम् उचितरूपम् अत्र तु रोटिका अस्ति न
रोटिका
रमावत् अस्ति चेत् पुनः पृच्छतु
गृहिणी कां ददाति गृहिणी रोटिकां ददाति
द्विवचने अस्ति चेत्
द्विवचने अस्ति चेत् गृहिणी के ददाति गृहिणी उत्तरं गृहिणी रोटिका रोटिकां
के ददाति
रोटिके ददाति
रोटिके ददाति के ददाति रोटिके ददाति अस्तु अस्तु द्विगृहिणी अस्ति चेत् कथं वदामः पदं किं द्विवचने कर्तृपदं द्विवचनं
कर्तृपदं गृहिणे गृहिणे गृहिण्यौ एकनिमिषं गृहिण्यौ
कीदृशपदं
नदीवत् भगिनि
नदीवत् पृच्छतु गृहिण्यौ
गृहिण्यौ के ददाति
गृहिण्यौ के वचनं किं
द्विवचनम् अस्ति भगिनि
वदतु प्रश्न क्रियापदं
क्रियापदं
अन्य कोऽपि
ददन्ति ददन्ति भगिनि
न न न अन्य कोऽपि वदतु
दत्तः
दत्तः किमर्थं दीक्षिका भगिनी दत्तः
ददाति दत्तः ददति दत्तः द्विवचन
अवगतं शिवरूपा भगिनी गृहिण्यौ तु द्विवचने अस्ति
ददतः
दत्तः
दत्तः
सो गृहिण्यौ रोटिकां दत्तः बहुवचनमस्ति चेत् कर्तृपदं बहुवचनः
बहुवचनमस्ति चेत् गृहिण्यः रोटिका गृहिण्यः रोटिकाः रोटिकाः ददति
उत्तमं तदेव सुन्दरं सुन्दरं गृहिण्यः रोटिकाः ददति सुन्दरं भगिनी अग्रिमं करोतु सुधा भगिनी किं सुधा भगिनी वा कस्य क्रमः अत्र विस्मरामि कस्य क्रमः
सुधा भगिनी अस्ति भगिनि
सुधा भगिनी करोतु भगिनि
आं भगिनि अनुजः चित्रं दर्शयतु
एकं क्रियापदम् इति रूपं तु नास्ति किन्तु करोतु भगिनि करोतु किमपि करोतु तदनन्तरं प्रयत्नं करोतु
ऐ कुडन्ट् फैंड एनीथिंग
तदनन्तरं किं कुर्मः
भगिनी पश्यति अस्ति वा
पश्यति पश्यति किं धातुतः आयाति? कः धातुतः आयाति? क्षम्यतां, कः धातुतः आयाति पश्यति? कथं जानीमः? कथं जानीमः अत्र किं पश्यति? पश्यति, टैप् करोतु एकवारं लेक्सिलोगो मध्ये. तदनन्तरम् अष्टाध्यायी मध्ये तदनन्तरं किम् आयाति सुधा भगिनी? पश्यति, पश्यति तु वयं जानीमः. अपि अस्य वाक्यस्य किञ्चित् अर्थः तु अवगतमेव न? अनुजः चित्रं दृश्य इत्युक्ते पश्यति, किमपि पश्य, किमपि पश्यति, अवलोकयति, किमपि अर्थः तु वयं जानीमः. तदनन्तरं किं कुर्मः? लेक्सिलोगो मध्ये पश्यति इति टैप् करोतु. पश्यति, तदनन्तरम् अष्टाध्यायी मध्ये पूरयतु सर्च् बार् मध्ये. अनन्तरं किम् आयाति? पठतु. दृश्यायाति, दृश्यायाति. किन्तु अधुना दृश् अस्ति चेत् एकवारं अहं किं कुर्मः, दृश् एव स्वीकृत्वा अत्र, अस्तु एकमेव आयाति, अस्तु अस्तु अहं मन्ये तत्र. क्षम्यतां. अस्तु अस्तु, अत्र किं कुर्मः, यकार मुद्रणदोष स्वीकृत्य त्यजतु. अवगतं सुधा भगिनी? हा, किन्तु अत्र तु दर्श अस्ति न, तत्तु दृश् अस्ति, तत्तु दृश् अस्ति. अधुना किं कुर्मः, दर्श इति टैप् करोतु. दर्श, किमपि अस्ति वा न वा वयं जानीमः, तत्र एकवारं प्रयत्न करोतु. दर्श तु नास्ति, किन्तु अस्तु एकवारं दर्शयति करोतु. दर्शयति अस्ति वा न वा,
किमपि न आयाति भगिनि.
अहम् इति एकं वदामि, दर्शयति अत्र य आयाति, तेन एकम् अन्यवाक्यम् अस्ति तत्र यकार अस्ति, पूरयन्तु तु य तु तत्र अस्ति एव, किन्तु मध्ये यकार आयाति चेत् एकम् उ वयं कुर्मः. किं तत्, किं तेन प्रेरणार्थक अस्ति इत्युक्ते किं, प्रेरणार्थक अस्ति इत्युक्ते किं, यदि अहं किमपि कार्यं करोमि तत्तु अहं करोमि, किन्तु अहं किम् इच्छामि मम पुत्रः करोतु इति. मम इच्छा किम्? ओ, पुत्र भवतु इति मम इच्छा अस्ति चेत् अहं किं करोमि? एकवारं पुत्ररकारान्त द्वितीयविभक्ति किम्, एकवारं स्मारयतु. पुत्र रकारान्त पुंलिङ्ग् अस्ति चेत् किं, द्वितीयविभक्ति एकवारं स्मारयतु. स्मरामि, दातारं, पुत्र अस्ति चेत् पितरं पुत्रम् इति अहं मन्ये, किन्तु
रकारान्त में दो है ना, दात्र और पितृ दिए हैं शब्द मंजरी में।
दात्र अपि पितृ, पुत्र अस्ति चेत् मम उहां करोमि पितृ, पितृवत् अस्ति, किमर्थं उत्तरम् इति, पुत्रातु न, तत्तु अपि समीचीनं नास्ति, पुत्रापि अपि समीचीनं नास्ति, पुत्रस्य पुत्रं। पापा जी, पुत्र को को कैसे बोलेंगे? पापा जी इसने डाटा की है, पुत्रम हो जाएगा, तो वो रकारांत है तो पुत्र एक बार हम अस्तु, लेट मी फिनिश माय अस्तु, अत्र यदि अहम इच्छामि मम मित्रम, मित्रम इत्युक्ते किं, नपुंसकलिङ्गम् अस्ति चेत् मित्रम इति, मित्रं करोतु मम इच्छा अस्ति चेत् किं कुर्मः, अहं मित्रं वदामि, किम् आप करिये, दिस् इस् प्रेरणार्थक, किसी और से काम की प्रेरणा करना, यदि किमपि कस्यापि किमपि प्रेरणार्थकपदम् अस्ति चेत् मध्ये एकम् ऊहामेव, इस् नाट् आल्वेस् द केस्, मेनि मेनि काम्प्लिकेशन्स् आर् देर्, बट् वन् गेस् यू केन् हेव् इस् मध्ये यकार अस्ति चेत् प्रेरणा अस्ति, अपि च अत्र तु दर्श दृश् नास्ति, दर्श दर्श इत्युक्ते दिखाना, पश्यति इत्युक्ते देखना, टु सी, दर्श इत्युक्ते दिखाना, स्मरति इत्युक्ते याद करना, स्मारयतु याद करवाना, कथयतु बुलवाना, किसी से कुछ बुलवाना, कथयतु, अवगतं वा? दर्श इत्युक्ते, हा हा, सिंपली ब्रॉडली स्पीकिंग आई एम टेलिंग यू, मेनी 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 सूत्रास एंड गणास एंड ऑल ऑफ दिस विल कम इन वंस यू स्टार्ट लर्निंग, किंतु अत्र ब्रॉडली स्पीकिंग दृष्टु अहम एव करोमि, तदनन्तरं पश्यति इत्युक्ते किन्तु अन्य कोऽपि अहम् इति इच्छा अस्ति चेत् अहं किं वदामि, दर्शयतु, मतलब मैं दिखा रही हूं किसी को, अस्तु अधुना हा करोतु भगिनि, अनुजः
अनुजः चित्रं दर्शयति,
तदेव तदेव साधारणरूपमेव, दर्शयति, मे बी इट् इस् इन् संस्कृत स्पोकन्, हौ डु ऐ शो इट् टु यू, सी देर् इस् नो वे टु फैण्ड् वेरि क्विक् आन्सर्स् टु आल् दिस्, केन् यु इमेजिन् हौ मच् ऐ स्ट्रगल्ड्, नो बडी टाट् मी लैक् दिस्, दर्शयति दर्शयति
दर्शयति,
गुड् गुड् गुड्, टु प्रेसेण्ट्, सी टु प्रेसेण्ट् टु शो, it's different from seeing. Mm-hmm. See, it says here, verbal causal. So when there is a causal, then someone extra pratyaya comes. Pratyaya ityukte kim? Suffix. That brings the ya in the middle between the ending ti and the dhatu. Yakara ayati. is not always the case. Many things are happening in many, many cases. But this is one guess you can take. Plus, you can see it is not drushayati, it is darshayati. It takes a guna, which means it changes its form. It's called guna. You will learn all this later. But so just very, very...
So in this sense, it will take the same gana sankhya as of the pashyati?
Haan. But it takes on an additional pratyaya. So, the other thing you learn is that when you look at a dhatu, for example, you look at any dhatu, drushyeva. How many are there? There is lut, 9, lit, another 9, maybe more rupa, see, some have multiple. Then lut, another 9, then lut, another 9, lot, another 9, plus other additional ones. Then lung, another 9. Then vidhiling, another 9. Then ashirling, another 9. Then lung, another 9 or more. Then lung, another 9. How many forms are given in Ashtadhyayi? Yet, you can make so many more forms. Like if you add a causal to that. Karna, karvana. Dekhna, dikhana. Khana, khilvana. Dalna, dalvana. Banana, banvana. Hindi madhye eva. That transformation is not even given in this Ashtadhyayi. How many verb declensions exist? Can you believe that? Why do we need so many? Because it enriches the language. Why does it enrich? Because it brings more different shades of meanings, more moods, more intentions. You can clarify precisely what you want to say or what you want to do. Why is this precision important in clarity? Imagine if I'm trying to describe to you a color. And it's kind of a color in between blue and red. But there is no word for red in my language. How will I describe that color? Each time I have to say, you know that sky, the color of the sky blue, it is a color between the blue and that color of that rose. Can you imagine a color? With that color, I was making it lighter for that painting. I mean, somebody else is already lost. What are you talking about? Each time you have to try to describe something for which there is no precise word. That is why Sanskrit has a very large, infinite vocabulary. Because we don't know what you want to think, what is your human experience. Everybody's human experience is unique. Every moment is unique. So it has the capacity to make infinite words. And already so many thousands of years of Sanskrit literature, how many are already existing? And how many prakriyas exist for such transformations? Infinite. So this is a good example. I didn't intend to show all this. I didn't think Darsha was there. I didn't see it earlier. But it gives you a little idea. Smarati, smarayati.
So all verbs can take...
All verbs can be prernarthaka. Imagine in your mother tongue. What is your mother tongue once more?
My mother tongue is Telugu, but I was born and brought up in Tamil Nadu, so I speak better Tamil.
So in Tamil, do the same thing, karna, karvana. Do it with any one verb.
Naan puttagam padi.
Just give me the kriya padam.
Padikiren means studying. Somebody else to do it is padika vaikiren. I'm making him read.
See this transformation. Can you do it for every verb in Tamil? कथम् आयाति? संस्कृतेन आयाति, तत्र संस्कृततः आयाति, भाषातः आयाति. सो ब्यूटिफुल् नो दिस् ट्रान्स्फर्मेशन्. बट् लुक् एट् इट् इन् इङ्ग्लिश्. ऐ एम् स्टडीङ्ग् देन् टु मेक् सम्बडी अण्डर्स्टाण्ड् यू से ऐ टीच् टोटलि डिफ्रेण्ट्. यू हेव् टु देन् लर्न् अ न्यू वर्ब् एण्ड् देन् यू फर्गेट् देट् इट् इस् आक्चुलि द क्रिया इस् द सेम्. That is why Sanskrit is so beautiful, because it teaches us just by using the same verb transformation that actually the process is the same, whether I do it or you do it. Isn't it? That is why you notice in a good teacher in traditional India, all teachers would say, look, I am also a student. Because what I am trying to teach you is my studying also. Have you met any good teacher, however great the Swami may be, who claims himself to be doing something that you are not doing? No. Because the language teaches you that in the prakriya, the transformation in your brain is the same. Such an important thing that is there in all our language, in all mother tongues. Everybody in this class, look at your own mother tongue. It will have the same thing going on in whatever, I don't know the ways, but it will be the same thing. This is what is happening in Darshayati, Darshayatu. Astu, Viramam. Avagatam va, ane kopi prashna?
Aam bhagini, avagatam.
पुनः एकवारम् इति अभ्यास पश्यतु एकवारं. विल् कण्टिन्यू वित् ट्रै टु रिमेम्बर् रिमैण्ड् मी नेक्स्ट् वीक् विल् कण्टिन्यू वित् दिस् सो डू योर् होम्वर्क् फिनिश् एव्रिथिङ्ग् रैट् डौन् नेक्स्ट् टु इट् मे बि प्रिण्टेड् औट् और् रैट् इट् इन् योर् हेण्ड् रैटिङ्ग् फार् ईच् वर्ब् यु डू इट् इस् गुड् गुड् प्राक्टिस् again and again again. For me also it is, I'm also learning from you people when you say it again and again, and I also have to go and clarify. No, I hardly know two things more than you, barely. Astu,
please don't say that, Bhagini.
Have to. No, it's true, Bhagini. I barely started learning Sanskrit. And you know, the way I'm teaching is because I really feel like I wish somebody would have held my hand and taught me, because I was alone, no? Lawrence, nobody is here. Then each year I would go to India trying to find teachers. How much can you learn in one workshop? Nothing. They try to make a workshop very more meaningful than going to like words and all that. So I had to figure all these things out myself, but by teaching you, it teaches me one more time how to, this prakriya. This is my job, is to understand the prakriya. If I can teach you how to draw a fish, you can draw a fish. If I draw a fish for you, how will you learn? This is why again and again I make you do these prakriyas. You have to do it. That's the only way. If I just tell you the word and I tell you the meaning each time, then it just adds to your burden of memory. But here, the exploration is going on in your head, and that is what makes it fun. I feel like if there is exploration, any task is fun. Don't you feel?
Yes, Bhagini.
Imagine if you had to just come to Sanskrit class and I gave you like 50 words each time, you simply memorize. I mean, it would be so
tiring. True, Bhagini. This is an excellent way of teaching, actually. We are, every time we come here, you know, unknowingly we are learning some things, new things. And it is provoking us to learn more and more also.
More.
So it is,
that is my job.
Definitely you have created an interest of learning Sanskrit.
See, yes, the greatest thing I can teach you is inspiration. Then you become your own master. I cannot make anybody master, for sure. I can barely make myself any good. But if I teach the prakriya, then it's for you to pick up or not to pick up. That's your call. It's not my call. Any case, it's not my call, your life, right? My own life is hardly my own call.
You can take us till the river. drinking the water or not drinking is avaveshi. True, Bhagini.
That is your call. Uttamam. Uttamam. For but that, I would like to ask. Vadatu.
If not Abadatu, for you, somebody other, some other teacher would have given up on us, Bhagini.
No. Nobody would have given up. See, all they are all in L2. All of the other students are in L2. We are on page what? 20.
No, but that's not what I'm saying.
I'm telling you, they'll finish their second book and we will be like midway between Abhyas. But you will know Prakriyas, which they or may or may not know. I don't know. Deepshika Bhagini, you were in another class. They're going fast. They're learning so much. I'm not teaching that much, actually. I'm not teaching that much.
They were going very fast.
Very fast.
Well, she used to just tell the meanings and we used to carry on doing the exercises. That's all.
So how do you memorize or learn the meaning? It's just memory.
Just memory.
Memory
or find out on your own or do what you like in the class. So if you ask, she would answer, otherwise she would just carry on.
So these are most prakriyas, you see. It depends on each person. Then she's leaving it to each student. You find your own, you know, which is also another method of teaching. But I feel like at least in our group, no, we are all kind of isolated. I know what it feels like to be isolated. I feel culturally isolated, and I also feel like language wise I'm very isolated. I don't have people to practice with. I don't have people to expand my knowledge with. So for me, what do I latch on to when I'm in isolation? See, many of us are living abroad. Deepshika is in India only, but she is grounded with her. She's so grounded with housework that she feels isolated, I suppose. But most of us are pretty isolated in wherever we live, you know, in the States or in London or wherever. So the thing we can grab onto is the prakriya, because we don't have time. We don't have practice area. Our practice area is what? That what is your practice area going to be? To listen to other teachers who are fluent. I also do that. Please listen to other teachers. Even when you're cooking, put it on. This old recording from Lakshmi Bhagini or Vidya Bhagini or Subramanya Mahodaya. I mean, so many amazing teachers, totally fluent. One of the teachers that teaches Sanskrit, if I ask him a question even on email in English, you know how he responds? He writes his answer back in Anushtup Chanda, which is like same as Bhagavad Gita, most verses. Then I have to sit and decipher his answer. And if you go to really good Sanskrit panditas, they talk in Anushtup, they talk in Chandas. It comes out like a flowing language. It's not like they're writing poetry, memorizing and... No, everyday language is in Chandas. Am I right, Papaji?
Bhagini, you are saying the language itself, they speak in Chandas language, Bhagini.
They're normal.
Really?
Papaji, please. Papaji, please. Vadatu. Let me do it. I cannot. Deepa, you have to do it.
Correct. 1 minute. वो छोटा बटन दबाइए ना पापा साइड में ये वाला
क्या करना
हाँ पापा सो संस्कृत के जो पंडित होते हैं ये नॉर्मल भाषा में वो लोग छंद में बात करते हैं
क्योंकि संस्कृत जो प्रारंभ में सिखाते हैं वो छंदों ही से सिखाते हैं व्याकरण से नहीं सिखाते व्याकरण तो हम अपने आप सीख जाते हैं हम बना लेते हैं
बचपन से बचपन से जब हम सीखते हैं ना तो छंद छंदों से ही सिखाते हैं।
जब छंद में हम सुनेंगे तो हम छंद में सोचेंगे और छंद में बोलेंगे।
See, so beautiful. And I have heard people talk like this. It's not just a hearsay. आपने भी सुना होगा पापा। उनकी भाषा सुनो ना तो ऐसे वी स्टार्ट जैसे जैसे कैसे कोई गाना गाता है ना तो हम लोग साइड टू साइड घूमने लगते हैं ऐसे विद आवर बॉडीज। उनकी भाषा सुन के आई स्टार्ट डूइंग दैट। It's like your body falls into this calm, beautiful, peaceful rhythm, like a wave, an ocean wave. They are simply conversing and they are speaking in chandas. Can you believe that? But like Papa said, bachpan se they hear these chandas over and over. Abhi dekhi, I am now studying these simple books for beginners. Usmein kuch bhi batayenge na, chand mein batayenge. Chote se do line ke shubhashit hum honge. And one yesterday we read. उसमें क्या लिखा था जो 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 आदमी जो जिसका दिमाग छोटा होता है छोटे दिमाग के लोग होते हैं those people with smaller minds or smaller capacities they get overwhelmed with even a small task. They are agitated, they are stressed out. Small task I have to do this. Oh my God, I very stressed out over a small task. And the people that have expanded their capacity and potential, they can do the largest and multiple tasks and stay very, very calm and continue. In two lines it was given to me. So beautiful. And again, bachpan se you hear such chandas and stories, you become like that. You're constantly inspired. You live in an environment of inspiration that pulls out the best of you at all times. You recognize how the mind works, how the body works, what is the best, but highest potential I can live as a human. But that environment is very important. It's not a living in an environment like today is very hard to do that. Because you're surrounded by he said was not even small-minded for that. Small-minded people he didn't use. He used agnyaha, which means people that are ignorant. If people are very stressed and very agitated even with the smallest tasks. But the people that know reality, they can carry on the largest tasks and just continue. No stress. Things happen, things don't happen. It doesn't mean everything happens according to their wishes. It simply means they continue. No stress. Just continue working. And everything comes through chandas. It's so important. Isiliye bolte hum log chanting is very important and learning subhashitam is very... Subhashitams are in a very, very large section of Sanskrit literature. Am I right, Papa?
Hmm.
Aapko
chandas. Actually means a cover. Actually it means a cover. छाया हुआ है वो बनता है हिंदी में छाया हुआ है उसको ऊपर छाया हुआ है तो छंद is a covering.
That's so beautiful. इतना सारा ज्ञान उसमें भरा पड़ा है और ढका हुआ है एक तो गाने में और हम लोग ऐसे ऐसे उसके साथ झूम रहे हैं। See how beautiful. I didn't ever thought of that. I'm now interested in the word chandas. I'll find it.
Most of the chants like you know it comes from Anustup Chandaha. So is it there specific? Is it common for poetry writing and this kind of chants?
Reason it is common, Bhagini, because see, unless you are very specially inclined to rhythm, it's very
it is
easy.
Breaking, Bhagini, I can't forward. Hear you, I don't know.
Oh, you can hear me now?
Yes, now it's fine.
So, the reason Anushtup is very common is because it's very easy. 1 2 3 4 1 2 3 4 1 2 3 4 1 or you can break it 1 2 1 2. Everybody can do that. Even somebody with right. zero skill can do 1 2 1 2. Now if I ask you to do 7, will be 1 2 3 1 2 3 4. You'll be stuck. You'll have to say, oh, I have to keep count. Wait a minute, I got lost. Where was I? But Anushtup is natural. Very easy. Easiest rhythm. That is why many, it is popular. Most people will, see, it's not like other chandas are not found in Sanskrit. They are equally found. But what do most people remember? Anushtup. Why? Because they can.
Because everyone can catch that and easily can
memorize.
Huh,
memorize it.
Nice.
Beautiful too.
Beautiful. It's really natural rhythm. Isn't it, Papa? 1 2 3 1 1 2 3 4 1
Yes,
Bhagini. Astu. Any other thoughts, comments? Should we stop? पापाजी शान्ति पाठ वदतु महोदय.
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. हरिः ओम्. श्री गुरुभ्यो नमः. हरि ओम्.
ओम् सर्वं कृष्णार्पणमस्तु. हरिः ओम्. शान्ति शान्ति शान्ति. धन्यवादः सर्वेभ्यः. नमो नमः. पुनः मिलामः श्वः.
धन्यवाद.
खाने के बाद जाते हैं वो वाला नहीं हुआ ना.